शतसहस्रनामस्तोत्रम् ध्यानम् अरुणां करुणातरङ्गिताक्षीं द्रुतपाशाङ्कुशपुष्पबाणचापाम् अणिमाधिभिरामृतां मयूखैः अहमित्येव विभावये भवानी। ध्यायेत् पद्मासनस्तां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्येम पद्माम्बराङ्गीं सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीं ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः। श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता उज्यद्भानुसहस्राभा चतुर्बाहुसमन्विता रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा कुरुविन्दमणिश्रेणी कनत्कोटीरमण्डिता अष्टमी चन्द्रविभ्राजदलिकस्थलशोभिता मुखचन्द्रकलङ्काभमृगनाभिविशेषका वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका वक्रलक्ष्मीपरीवाहचलन्मीनाभलोचना नवचम्पकपुष्पाभनासा दण्डविराजिता ताराकान्तितिरस्कारिनासाभरणभासुरा कदम्बमञ्जरी क्लुप्तकर्णपूरमनोहरा ताटङ्कयुगलीभूततपनोडुपमण्डला पद्मरागशिलादर्शपरिभाविकपोलभूः नवविद्रुमबिम्बश्री न्यक्कारिरदनच्छदा शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला कर्पूरवीटिकामोदसमाकर्षद्दिगन्तरा निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी मन्दस्मितप्रभापूरमज्जत्कामी समानसा अनाकलितसादृश्यचुभुकश्रीविराजिता कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा कनकाङ्गदकेयूरकमनीयभुजान्विता रत्नग्रैवेयचिन्ताकलोलमुक्ता फलान्विता कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी नाभ्यालवालरोमाणिलता फलकुचद्वयी लक्षरोमलताधारता समुन्नेयमध्यमा स्तनभारदळन्मध्यपट्टबन्धवळित्रया अरुणारुणकौसुम्भवस्त्रभास्वत्यटीतटी रत्नकिङ्किणिकारम्यरसनादामभूषिता कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता माणिक्यमकुटाकारजानुद्वयविराजिता इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका गूढगुल्फापूर्मपृष्टजयिष्टुप्रपदान्विता नखदीधिति सञ्चन्न नमज्जनतमोगुणा पदद्वयप्रभाजालपराकृतसरोरुहा सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा मराळी मन्दगमना महालावण्यसेवदिः सर्वारुणानवद्याङ्गी सर्वाभरणभूषिता शिवकामेश्वराङ्कस्ता शिवा स्वाधीनवल्लभा सुमेरुमध्यशृङ्गस्ता श्रीमन्नगरनायिका चिन्तामणिगृहान्तस्ता पञ्चब्रह्मासनस्थिता महापद्माटवी संस्था कदम्बवनवासिनी सुधासागरमध्यस्था कामाक्षी कामदायिनी देवर्षिगणसङ्घातस्तूयमानात्मवैभवा भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता सम्पत्करी समारूढसिन्धुरव्रजसेविता अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ಚಕ್ರರಾಜರಧಾರೂಢ ಸರ್ವಾಯುಧ ಪರಿಷ್ಕೃತ ಗೇಯ ಚಕ್ರರಧಾರೂಢ ಮಂತ್ರಿಣೀ ಪರಿಸೇವಿತ ಕಿರಿಚಕ್ರರಧಾರೂಢ ದಂಡನಾಥ ಪುರಸ್ಕೃತ ಜ್ವಾಲಾಮಾಲಿನಿ ಕಾಕ್ಷಿಪ್ತ ಬನ್ನಿ ಪ್ರಾಕಾರ ಮಧ್ಯಗ ಭಂಡ ಸೈನ್ಯವಧೋದ್ಯುಕ್ತ ಶಕ್ತಿ ವಿಕ್ರಮ ಹರ್ಷಿತ ನಿತ್ಯ ಪರಾಕ್ರಮಾಟೋಪ ನಿರೀಕ್ಷಣ ಸಮುತ್ಸುಕ ಭಂಡ ಪುತ್ರ ವಧೋದ್ಯುಕ್ತ ಬಾಲ ವಿಕ್ರಮ ನಂದಿತ ಮಂತ್ರಿಣ್ಯಂಬಾ ವಿರಚಿತ ವಿಷಂಗ ವಧ ತೋಷಿತ ವಿಶುಕ್ರ ಪ್ರಾಣ ಹರಣ ವಾರಾಹಿ ವೀರ್ಯ ನಂದಿತ ಕಾಮೇಶ್ವರ ಮುಖಾಲೋಕ ಕಲ್ಪಿತ ಶ್ರೀ ಗಣೇಶ್ವರ ಮಹಾಗಣೇಶ ನಿರ್ಭಿನ್ನ ವಿಘ್ನ ಯಂತ್ರ ಪ್ರಹರ್ಷಿತ ಭಂಡಾ ಸುರೇಂದ್ರ ನಿರ್ಮುಕ್ತ ಶಸ್ತ್ರ ಪ್ರತ್ಯಸ್ತ್ರ ವರ್ಷಿಣಿ ಕರಾಂಗುಳಿ ನಖೋತ್ಪನ್ನ ನಾರಾಯಣ ದಶಾಕೃತಿ ಮಹಾಪಾಶುಪತಾಸ್ತ್ರಾಗ್ನಿ ನಿರ್ದಗ್ಧಾಸುರ ಸೈವಿಕ ಕಾಮೇಶ್ವರಾಸ್ತ್ರ ನಿರ್ದಗ್ಧ ಸಭಂಡಾಸುರ ಶೂನ್ಯಕ ಬ್ರಹ್ಮೋಪೇಂದ್ರ ಮಹೇಂದ್ರಾದಿ ದೇವ ಸಂಸ್ತುತ ವೈಭವ ಹರನೇತ್ರಾಗ್ನಿ ಸಂದಗ್ಧ ಕಾಮ ಸಂಜೀವನೌಷಧಿ ಶ್ರೀಮದ್ವಾಗ್ಭವ ಕೂಟೈಕ ಸ್ವರೂಪ ಮುಖ ಪಂಕಜ ಕಂಠಾದಕ್ಕಟಿ ಪರ್ಯಂತ ಮಧ್ಯಕೂಟ ಸ್ವರೂಪಿಣಿ ಶಕ್ತಿ ಕೂಟೈಕ ತಾಪನ್ನ ಕಟ್ಯಧೋ ಭಾಗಧಾರಿಣಿ ಮೂಲ ಮಂತ್ರಾತ್ಮಿಕಾ ಮೂಲ ಕೂಟತ್ರಯ ಕಳೇಬರ ಕುಳಾಮೃತೈಕ ರಸಿಕಾ ಕುಳ ಸಂಕೇತ ಪಾಲಿನಿ ಕುಲಾಂಗನಾ ಕುಲಾಂತಸ್ಥ ಕೌಳಿನಿ ಕುಲಯೋಗಿನಿ ಅಕುಲ ಸಮಯಾಂತಸ್ಥ ಸಮಯಾಚಾರ ತತ್ಪರ ಮೂಲಾಧಾರೈಕ ನಿಲಯ ಬ್ರಹ್ಮ ಗ್ರಂಥಿ ವಿಭೇದಿನಿ ಮಣಿಪೂರಾಂತರುದಿತ ವಿಷ್ಣು ಗ್ರಂಥಿ ವಿಭೇದಿನಿ ಆಜ್ಞಾ ಚಕ್ರಾಂತರಾಳಸ್ಥ ರುದ್ರ ಗ್ರಂಥಿ ವಿಭೇದಿನಿ ಸಹಸ್ರಾರಾಂಬುಜಾರೂಢ ಸುಧಾ ಸಾರಾಭಿವರ್ಷಿಣಿ ತಟಿಲ್ಲತಾ ಸಮರುಚಿ ಷಟ್ಚಕ್ರೋಪರಿ ಸಂಸ್ಥಿತ ಮಹಾಶಕ್ತಿ ಕುಂಡಲಿನಿ ಬಿಸತಂತು ತಣೀಯಸಿ ಭವಾನಿ ಭಾವನಾಗಮ್ಯ ಭವಾರಣ್ಯ ಕುಠಾರಿಕಾ ಭದ್ರ ಪ್ರಿಯ ಭದ್ರಮೂರ್ತಿ ಭಕ್ತ ಸೌಭಾಗ್ಯದಾಯಿನಿ ಭಕ್ತ ಪ್ರಿಯ ಭಕ್ತಿಗಮ್ಯ ಭಕ್ತಿವಶ್ಯಾಭಯಾಪಹ ಶಾಂಭವೀ ಶಾರದಾರಾಧ್ಯ ಸರ್ವಾಣಿ ಶರ್ಮದಾಯಿನಿ ಶಾಂಕರೀ ಶ್ರೀಕರೀ ಸಾಧ್ವಿ ಶರಶ್ಚಂದ್ರ ನಿಭಾನನ ಶಾತೋದರೀ ಶಾಂತಿಮತಿ ನಿರಾಧಾರ ನಿರಂಜನ ನಿರ್ಲೇಪ ನಿರ್ಮಲ ನಿತ್ಯ ನಿರಾಕಾರ ನಿರಾಕುಲ ನಿರ್ಗುಣ ನಿಷ್ಕಳ ಶಾಂತ ನಿಷ್ಕಾಮ ನಿರುಪಪ್ಲವ ನಿತ್ಯ ಮುಕ್ತ ನಿರ್ವಿಕಾರ ನಿಷ್ಪ್ರಪಂಚ ನಿರಾಶ್ರಯ ನಿತ್ಯ ಶುದ್ಧ ನಿತ್ಯ ಬುದ್ಧ ನಿರವಧ್ಯ ನಿರಂತರ ನಿಷ್ಕಾರಣ ನಿಷ್ಕಳಂಕ ನಿರುಪಾಧಿ ನಿರೀಶ್ವರ ನೀರಾಗಾರಾಗಮಧಿನಿ ನಿರ್ಮದ ಮದನಾಶಿನಿ ನಿಶ್ಚಿಂತ ನಿರಹಂಕಾರ ನಿರ್ಮೋಹ ಮೋಹನಾಶಿನಿ ನಿರ್ಮಮ ಮಮತಾಹಂತ್ರಿ ನಿಷ್ಪಾಪ ಪಾಪನಾಶಿನಿ ನಿಷ್ಕ್ರೋಧ ಕ್ರೋಧ ಶಮನಿ ನಿರ್ಲೋಭ ಲೋಭನಾಶಿನಿ ನಿಸ್ಸಂಶಯ ಸಂಶಯಜ್ಞಿ ನಿರ್ಭವ ಭವನಾಶಿನಿ ನಿರ್ವಿಕಲ್ಪ ನಿರಾಬಾಧ ನಿರ್ಭೇದ ಭೇದನಾಶಿನಿ ನಿರ್ನಾಶ ಮೃತ್ಯು ಮಥನಿ ನಿಷ್ಕ್ರಿಯ ನಿಷ್ಪರಿಗ್ರಹ ನಿಸ್ತುಲ ನೀಲ ಚಿಕುರ ನಿರಪಾಯ ನಿರತ್ಯಯ ದುರ್ಲಭ ದುರ್ಗ ಮಾ ದುರ್ಗ ದುಃಖ ಹಂತ್ರಿ ಸುಖಪ್ರದ ದುಷ್ಟ ದೂರ ದುರಾಚಾರ ಶಮನಿ ದೋಷ ವರ್ಜಿತ ಸರ್ವಜ್ಞ ಸಾಂದ್ರ ಕರುಣಾ ಸಮಾನಾಧಿಕ ವರ್ಜಿತ ಸರ್ವಶಕ್ತಿಮಯಿ ಸರ್ವ ಮಂಗಳ ಸದ್ಗತಿ ಪ್ರದ ಸರ್ವೇಶ್ವರಿ ಸರ್ವಮಯಿ ಸರ್ವ ಮಂತ್ರ ಸ್ವರೂಪಿಣಿ ಸರ್ವಯಂತ್ರಾತ್ಮಿಕ ಸರ್ವತಂತ್ರ ರೂಪ ಮನೋನ್ಮನಿ ಮಾಹೇಶ್ವರಿ ಮಹಾದೇವಿ ಮಹಾಲಕ್ಷ್ಮಿ ದೃಢಪ್ರಿಯ ಮಹಾರೂಪ ಮಹಾಪೂಜ್ಯ ಮಹಾಪಾತಕನಾಶಿನಿ ಮಹಾಮಾಯಾ ಮಹಾಸತ್ವ ಮಹಾಶಕ್ತಿರ್ಮಹಾರತಿ ಮಹಾಭೋಗ ಮಹೈಶ್ವರ್ಯ ಮಹಾವೀರ್ಯ ಮಹಾಬಲ ಮಹಾಬುದ್ಧಿರ್ಮಹಾಸಿದ್ಧಿರ್ಮಹಾಯೋಗೀಶ್ವರೇಶ್ವರಿ ಮಹಾತಂತ್ರ ಮಹಾಮಂತ್ರ ಮಹಾಯಂತ್ರ ಮಹಾಸನ ಮಹಾಯಾಗಕ್ರಮಾರಾಧ್ಯ ಮಹಾಭೈರವ ಪೂಜಿತ ಮಹೇಶ್ವರ ಮಹಾಕಲ್ಪ ಮಹಾತಾಂಡವ ಸಾಕ್ಷಿಣಿ ಮಹಾಕಾಮೇಶ ಮಹಿಷಿ ಮಹಾತ್ರಿಪುರ ಸುಂದರಿ चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी महाचतुष्षष्टिकोटियोगिनी गणसेविता मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा चारुरूपा चारुहासा चारुचन्द्रकलाधरा चराचर जगन्नाथा चक्रराजनिकेतना पार्वती पद्मनयना पद्मरागसमप्रभा पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी चिन्मयी परमानन्दा विज्ञानघनरूपिणी ध्यानध्यातृध्येयरूपा धर्मा धर्मविवर्जिता विश्वरूपा जागरिणी स्वपन्ती तैजसात्विका सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था विवर्जिता सृष्टिकर्त्री ब्रह्मरूपा गोत्री गोविन्दरूपिणी संहारिणी रुद्ररूपा तिरोधानकरीश्वरी सदा शिवानुग्रहदा पञ्चकृत्यपरायणा भानुमण्डल मध्यस्था भैरवी भगमालिनी पद्मासना भगवती पद्मनाभ सहोदरी उन्मेष निमिषोत्पन्न विपन्न भुवनावलिः सहस्रशीर्ष वदना सहस्राक्षी सहस्रपात् आब्रह्मकेट जननी वर्णाश्रम विधायिनी निजाज्ञारूप निगमा पुण्या पुण्यफलप्रदा श्रुति श्रीमन्त सिन्दूरी कृतपादाव्यधूलिका सकलागम सन्दोह सुक्ति सम्पुट मौक्तिका पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी अम्बिकानादि निधना हरिब्रह्मेन्द्र सेविता नारायणी नादरूपा नामरूप विवर्जिता ह्रीङ्कारी हेमती हृद्या हेयोपादेय वर्जिता राजराजार्चिता राज्ञी रम्या राजीवलोचना रञ्जनी रमणी रस्या रणत्किङ्किणी मेखला रमा राकेन्दुवदना रतिरूपा रतिप्रिया रक्षाकरी राक्षसग्नी रामा रमणलम्पटा काम्या कामकलारूपा कदम्बकुसुमप्रिया कल्याणी जगती कन्दा करुणारससागरा कलावती कलालापा कान्ता कादम्बरी प्रिया वरदा वामनयना वारुणी मदविह्वला विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी विधात्री वेद जननी विष्णुमाया विलासिनी क्षेत्रस्वरूपा क्षेत्रेसी क्षेत्रक्षेत्रज्ञपालिनी क्षयवृद्धि विनुर्मुक्ता क्षेत्रपालसमर्जिता विजया विमला वन्द्या वन्दारुजनवत्सला वाग्वादिनी वामकेशी वह्निमण्डलवासिनी भक्तिमत्कल्पलतिका पशुपाशविमोचिनी संहृता शेष पाषाण्डा सदाचार प्रवर्तिका तापत्रयाग्नि सन्तप्त समाह्लादवचन्द्रिका करुणी तापसाराढ्या तनुमज्जा तमोपहा चितिस्तत्पदलक्ष्यार्था चिदेकर स्वरूपिणी स्वात्मानन्दल विभूत ब्रह्माद्यानन्द सन्ततिः परा प्रत्यक्तिति रूपा पश्यन्ति परदेवता मध्यमा वैखरी रूपा भक्तमानसहंसिका कामेश्वर प्राणनाडी कृतज्ञा कामपूजिता शृङ्गाररस सम्पूर्णा जया जालन्धरस्थिता वोड्यानपीठ निलया बिन्दुमण्डलवासिनी रहो यागक्रमाराध्या रहस्तर्पण तर्पिता सद्यः प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता षडङ्गदेवता युक्ता षाड्गुण्य परिपूरिता नित्यक्लिन्ना निरुपमा निर्वाण सुखदायिनी नित्या षोडशिका रूपा श्रीकण्ठार्ध शरीरिणी प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी मूल प्रकृतिरव्यक्ता व्यक्ता व्यक्तस्वरूपिणी व्यापिनी विविधाकारा विद्या विद्या स्वरूपिणी महाकामेश नयन कुमुदाह्लाद कौमुदी भक्तहार्दतमो भेद भानु मद्भानु सन्ततिः शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता अप्रमेया स्वप्रकाशा मनोवाचानुगोचरा चिच्छक्तिश्चेतना रूपा जडशक्तिर्जडात्मिका గాయత్రీ వ్యాహృతి సంధ్యా ద్విజ బృందని సేవిత తత్వాసనా తత్వమయీ పంచకోశాంతర స్థిత నిస్సీమ మహిమా నిత్య యౌవనా మదశాలిని మద ఘూర్ణిత రక్తాక్షి మద పాటల గండభూ చందన ద్రవ దిగ్ధాంగి చాంబేయ కుసుమ ప్రియా కుశలా కోమలాకారా కురుకుళ్ళా కుళేశ్వరీ కులకుండాలయా కౌళ మార్గ తత్పర సేవిత కుమార గణనాథాంబా తుష్టి పుష్టిర్మతి ధృతి శాంతి స్వస్తిమతి కాంతిర్నందిని విఘ్ననాశిని తేజోవతి త్రినయనా లోలాక్షి కామరూపిణి మాలిని హంసిని మాతా మలయాచలవాసిని సుముఖి నళిని శుభ్రు శోభనా సురనాయిక కాలకంఠి కాంతిమతి క్షోభిణి సూక్ష్మరూపిణి వజ్రేశ్వరి వామదేవి వయోవస్థా వివర్జిత సిద్ధేశ్వరి సిద్ధ విద్యా సిద్ధ మాతా యశస్విని విశుద్ధ చక్ర నిలయా రక్త వర్ణా త్రిలోచన ఖట్వాంగాది ప్రహరణ వదనైక సమన్విత పాయసాన్న ప్రియా తత్స్థా పశులోక భయంకరీ అమృతాది మహాశక్తి సమృతా డాకినీశ్వరీ అనాహతాబ్జ నిలయా శ్యామా భావదనద్వయా దంష్ట్రోజ్వలాది మాలాది ధరా రుధిర సంస్థిత కాళరాత్ర్యాది శక్త్యాఘవృతా సిద్ధోధన ప్రియా మహావీరేంద్ర వరదా రాకిణ్యంబా స్వరూపిణి మణిపూరాబ్జ నిలయా వదనత్రయ సంయుత వజ్రాధికాయుధోపేత డామర్యాదిభిరావృత రక్తవర్ణా మాంసనిష్టా గుణా నప్రీత మానస సమస్త భక్త సుఖదా లాకిన్యంబా స్వరూపిణి స్వాదిష్టానాంబు జగత చతుర్వక్త్ర మనోహర శూలాద్యాయుధ సంపన్నా పీతవర్ణాది గర్విత మేధోనిష్టా మధుప్రీత బంధిన్యాది సమన్విత దర్జన్నాసక్త హృదయా కాకినీ రూపధారిణి మూలాధారాంబుజారూఢా పంచవక్త్రాస్తి సంస్థిత అంకుశాది ప్రహరణ వరదాది నిషేవిత ముద్గోధనాసక్త చిత్త సాకిన్యంబా స్వరూపిణి ఆజ్ఞాచక్రాబ్జ నిలయా శుక్లవర్ణా షడానన మజ్జా సంసాహంసవతి ముఖ్య శక్తి సమన్విత హరిద్రానైక రసిక హాకినీ రూపధారిణి సహస్రదళ పద్మస్థ సర్వర్ణోపశోభిత సర్వాయుధరా శుక్ల సంస్థిత సర్వతోముఖి సర్వోదన ప్రీత చిత్త యాకిన్యంబా స్వరూపిణి స్వాహా స్వధామ తిర్మేధ శృతి స్మృతిరనుత్తమ పుణ్యకీర్తి పుణ్యలభ్య పుణ్యశ్రవణ కీర్తన కులోమజార్జిత బంధ మోచని బంధురాలక విమర్శరూపిణి విద్యా వియదాది జగత్ప్రసూ సర్వవ్యాధి ప్రసమణి సర్వమృత్యు నివారిణి అగ్రగణ్యా చింత్య రూప కలికల్మషనాశిని కాచాయిని కాళహంత్రి కమలాక్ష నిషేవిత తాంబూల పూరిత ముఖి దాడివి కుసుమ ప్రభ మృగాక్షి మోహిని ముఖ్య మృడాని మిత్ర రూపిణి నిత్యతృప్త భక్త నిధి నియంత్రి నిఖిలేశ్వరి మైత్ర్యాది వాసనా లభ్య మహాప్రళయ సాక్షిణి పరాశక్తి పరానిష్ట ప్రజ్ఞాన ఘన రూపిణి మాద్వీపానాల సామత్త మాతృకావర్ణ రూపిణి మహాకైలాస నిలయా మృణాల మృదు దోర్లత మహనీయా దయామూర్తి మహాసామ్రాజ్యశాలిని ఆత్మవిద్యా మహావిద్యా శ్రీ విద్యా కామ సేవిత శ్రీ షోడశాక్షరీ విద్యా త్రికూట కామ కోటిక కటాక్ష కింకరీ భూత కమలా కోటి సేవిత స్థిరస్థిత చంద్ర నిభా పారస్తేంద్ర ధను ప్రభా హృదయస్థార విప్రఖ్యా త్రికోణాంతర దీపిక దాక్షాయణి దైత్యహంత్రి దక్ష యజ్ఞ వినాశిని ధరాందోళిత దీర్ఘాక్షి దరహాసోజ్వలోన్ముఖి గురుమూర్తిర్గుణ నిధి గోమాత గహ జన్మభూ దేవేశీ దండ నీతిస్థా దహరాకాశ రూపిణి ప్రతిపన్ముఖ్య రాకాంత తిథి మండల పూజిత కళాత్మిక కళానాథ కావ్యాలాప వినోదిని సచామర రమావాణి సవ్య దక్షిణ సేవిత ఆదిశక్తి రమేయాత్మ పరమా పావనా కృతి అనేక కోటి బ్రహ్మాండ జననీ దివ్య విగ్రహ క్లీంకారీ కేవల గుహ్య కైవల్య పదదాయిని त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी त्र्यक्षरी दिव्य गन्धाढ्या सिन्धूरतिलकाञ्चिता उमा शैलेन्द्र तनया गौरी गन्धर्व सेविता विश्वगर्भा स्वर्णगर्भा वरदा वागढीश्वरी ध्यानगम्या परिच्छेद्या ज्ञानदा ज्ञान विग्रहा सर्ववेदान्त संवेद्या सत्यानन्द स्वरूपिणी लोपा मुद्रा चिता लीला क्लप्त ब्रह्माण्ड मण्डला अदृश्यादृश्य रहिता विज्ञा त्रिवेद्य वर्जिता योगिनी योगदा योग्या योगानन्दा युगन्धरा इच्छा शक्ति ज्ञान शक्ति क्रिया शक्ति स्वरूपिणी सर्वाधारा सुप्रतिष्ठा सदा सद्रूपधारिणी अष्टमूर्तिरजा जैत्री लोकयात्रा विधायिनी एकाकिनी भूमरूपा निर्द्वैताद्वैत वर्जिता अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्य स्वरूपिणी बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया भाषा रूपा बृहत्सेना भावा भाव विवर्जिता सुखाराज्या शुभकरी शोभना सुलभा गतिः राजराजेश्वरी राज्यदायिनी राज्यवल्लभा राजतृपा राजपीठ निवेशित निजाश्रिता राजलक्ष्मी कोशनाधा चतुरंग बलेश्वरी साम्राज्यदायिनी सत्यसंधा सागर मेखला दीक्षिता दैत्य शमनी सर्वलोकवशंकरी सर्वार्थदात्री सावित्री सच्चिदानंद रूपिणी देशकाला परिच्छिन्ना सर्वगा सर्वमोहिनी सरस्वती शास्त्रमयी गुहाम्बा गुह्य रूपिणी सर्वोपाधि विनिर्मुक्ता सदा शिवपतिव्रता संप्रदायेश्वरी साध्वी गुरुमण्डल रूपिणी कुलोत्तीर्णा भगाराध्या माया मधुमती मही गणाम्बा गुह्यकाराध्या कोमलांगी गुरुप्रिया स्वतंत्रा सर्वतंत्रेशी दक्षिणा मूर्ति रूपिणी सनकादि समाराध्या शिव ज्ञान प्रदायिनी चित्तलानंद करिका प्रेम रूपा प्रियंकरी नाम पारायण प्रीता नंदी विद्या नटेश्वरी मिथ्या जगदधिष्ठाना मुक्तिदा मुक्ति रूपिणी लास्य प्रिया नयकरी लज्जा रंभादि वंदिता भवदा वसुधा वृष्टि पापारण्य दवानला दौर्भाग्यतूलवातूला जराध्वान्तर विप्रभा भाग्याब्धिचन्द्रिका भक्त चित्त केकी घना घना रोग पर्वत दम्बोळी मृत्यु दारु कुठारिका महेश्वरी महाकाली महाग्रासा महाशना अपर्णा चण्डिका चण्ड मुण्डा सुरनिगूधिनी क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी त्रिवर्गधात्री सुभगा त्रयम्बका त्रिगुणात्मिका स्वर्गा पवर्गदा शुद्धा जपा पुष्प निभा कृतिः ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता दुराराध्या दुराधर्षा पाटली कुसुम प्रिया महती मेरुनिलया मन्दार कुसुम प्रिया वीराराध्या विराट रूपा विरजा विश्वतोमुखी प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी मार्ताण्डभैरवाराध्या मन्त्रिणी न्यस्तराज्यधूः त्रिपुरेशी जयत्सेना निस्त्रै गुण्या परा परा सत्य ज्ञानानन्द रूपा सामरस्य परायणा कपर्दिनी कलामाला काम दुःखाम रूपिणी कलानिधि काव्य कला रसज्ञा रस सेवदिः पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा परं ज्योतिः परं धाम परमाणुः परात्परा पाशहस्ता पाशहन्त्री परमन्त्र विभेदिनी मूर्ता मूर्ता नित्य तृप्ता मुनिमानसहंसिका सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा प्रकटाकृतिः प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी विशृङ्खला विवित्तस्था वीरमाता वियत्प्रसूः मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी भावज्ञा भवरोगज्ञी भवचक्रप्रवर्तिनी छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी उदारकीर्तिरुद्दाम वैभवावर्णरूपिणी जन्म मृत्यु जरा तप्त जन विश्रान्तिदायिनी सर्वोपनिषदुद्दुष्टा शान्त्यकीटकलात्मिका गम्भीरा गगनान्तस्था गर्विता गानलोलुपा कल्पनारहिता काष्ठा कान्ता कान्तार्ध विग्रहा ಕಾರ್ಯಕಾರಣ ನಿರ್ಮುಕ್ತ ಕಾಮ ಕೇಳಿ ತರಂಗಿತ ಕನತ್ಕನಕ ತಾಟಂಕ ಲೀಲಾ ವಿಗ್ರಹಧಾರಿಣಿ ಅಜಾಕ್ಷಯ ವಿನುರ್ಮುಕ್ತ ಮುಗ್ಧಾಕ್ಷಿ ಪ್ರಸಾದಿನಿ ಅಂತರ್ಮುಖ ಸಮಾರಾಧ್ಯ ಬಹಿರ್ಮುಖ ಸುದುರ್ಲಭ ತ್ರಯೀ ತ್ರಿವರ್ಗ ನಿಲಯ ತ್ರಿಸ್ಥ ತ್ರಿಪುರ ಮಾಲಿನಿ ನಿರಾಮಯ ನಿರಾಲಂಬ ಸ್ವಾತ್ಮ ರಾಮ ಸುಧಾ ಸ್ಮೃತಿ ಸಂಸಾರ ಪಂಕ ನಿರ್ಮಗ್ನ ಸಮುದ್ಧರಣ ಪಂಡಿತ ಯಜ್ಞ ಪ್ರಿಯ ಯಜ್ಞಕರ್ತ್ರಿ ಯಜಮಾನ ಸ್ವರೂಪಿಣಿ ಧರ್ಮಾಧಾರಾಧನಾಧ್ಯಕ್ಷ ಧನ ಧಾನ್ಯ ವಿವರ್ಧಿನಿ ವಿಪ್ರಪ್ರಿಯ ವಿಪ್ರರೂಪ ವಿಶ್ವಭ್ರಮಣಕಾರಿಣಿ ವಿಶ್ವಗ್ರಾಸ ವಿದ್ರುಮಾಭ ವೈಷ್ಣವೀ ವಿಷ್ಣು ರೂಪಿಣಿ ಅಯೋ ನಿರ್ಯೋನಿ ನಿಲಯ ಕೂಟಸ್ಥಾಕುಳ ರೂಪಿಣಿ ವೀರಗೋಷ್ಠಿ ಪ್ರಿಯ ವೀರ ನೈಷ್ಕರ್ಮ್ಯಾನಾದ ರೂಪಿಣಿ ವಿಜ್ಞಾನ ಕಲನಾ ಕಲ್ಯ ವಿದಗ್ಧ ಬೈಂದವಾಸನ ತತ್ವಾಧಿಕ ತತ್ವಮಯಿ ತತ್ವಮರ್ಧ ಸ್ವರೂಪಿಣಿ ಸಾಮಗಾನ ಪ್ರಿಯ ಸೌಮ್ಯ ಸದಾ ಶಿವ ಕುಟುಂಬಿನಿ ಸವ್ಯಾಪಸವ್ಯ ಮಾರ್ಗಸ್ಥ ಸರ್ವಾ ಪದ್ವಿ ನಿವಾರಿಣಿ ಸ್ವಸ್ಥ ಸ್ವಭಾವ ಮಧುರ ಧೀರ ಧೀರ ಸಮರ್ಚಿತ ಚೈತನ್ಯಾಢ್ಯ ಸಮಾರಾಧ್ಯ ಚೈತನ್ಯ ಕುಸುಮ ಪ್ರಿಯ ಸದೋದಿತ ಸದಾ ತುಷ್ಟ ತರುಣಾದಿತ್ಯ ಪಾಟಲ ದಕ್ಷಿಣ ದಕ್ಷಿಣಾರಾಧ್ಯ ದರಸ್ಮೇರ ಮುಖಾಂಬುಜ ಕೌಳಿನಿ ಕೇವಲ ನರ್ಘ ಕೈವಲ್ಯ ಪದದಾಯಿನಿ ಸ್ತೋತ್ರ ಪ್ರಿಯ ಸ್ತುತಿಮತಿ ಶ್ರುತಿ ಸಂಸ್ತುತ ವೈಭವ ಮನಸ್ವಿನಿ ಮಾನವತಿ ಮಹೇಶಿ ಮಂಗಳಾಕೃತಿ ವಿಶ್ವಮಾತಾ ಜಗದ್ಧಾತ್ರಿ ವಿಶಾಲಾಕ್ಷಿ ವಿರಾಗಿನಿ ಪ್ರಗಲ್ಭ ಪರಮೋದಾರ ಪರಮೋದ ಮನೋಮಯಿ ವ್ಯೋಮಕೇಶಿ ವಿಮಾನಸ್ಥ ವಜ್ರಿಣಿ ವಾಮಕೇಶ್ವರಿ ಪಂಚಯಜ್ಞ ಪ್ರಿಯ ಪಂಚ ಪ್ರೇತ ಮಂಚಾಧಿಶಾಯಿನಿ ಪಂಚಮೀ ಪಂಚಭೂತೇಶಿ ಪಂಚ ಸಂಖ್ಯೋಪಚಾರಿಣಿ ಶಾಶ್ವತಿ ಶಾಶ್ವತೈಶ್ವರ್ಯ ಶರ್ಮದಾ ಶಂಭು ಮೋಹಿನಿ ಧರಾಧರ ಸುತಾ ಧನ್ಯ ಧರ್ಮಿಣಿ ಧರ್ಮವರ್ಧಿನಿ ಲೋಕಾತೀತ ಗುಣಾತೀತ ಸರ್ವಾತೀತ ಶಮಾತ್ಮಿಕಾ ಬಂಧೂಕ ಕುಸುಮ ಪ್ರಖ್ಯಾ ಬಾಲಾ ಲೀಲಾ ವಿನೋದಿನಿ ಸುಮಂಗಲಿ ಸುಖಕರಿ ಸುವೇಷಾಢ್ಯಾ ಸುವಾಸಿನಿ ಸುವಾಸಿನ್ಯಚ್ಚನ ಪ್ರೀತ ಶೋಭನ ಶುದ್ಧ ಮಾನಸ ಬಿಂದು ತರ್ಪಣ ಸಂತುಷ್ಟ ಪೂರ್ವಜಾ ತ್ರಿಪುರಾಂಬಿಕಾ ದಶ ಮುದ್ರಾ ಸಮಾರಾಧ್ಯ ತ್ರಿಪುರಾ ಶ್ರೀವಶಂಕರಿ ಜ್ಞಾನ ಮುದ್ರಾ ಜ್ಞಾನಗಮ್ಯ ಜ್ಞಾನ ಜ್ಞೇಯ ಸ್ವರೂಪಿಣಿ ಯೋನಿ ಮುದ್ರಾ ತ್ರಿಖಂಡೇಶಿ ತ್ರಿಗುಣಾಂಬಾ ತ್ರಿಕೋಣಗ ಅನಗಾದ್ಭುತ ಚಾರಿತ್ರ ವಾಂಚಿತಾರ್ಥ ಪ್ರದಾಯಿನಿ ಅಭ್ಯಾಸಾತಿಶಯ ಜ್ಞಾತ ಷಡ್ವಾತೀತ ರೂಪಿಣಿ ಅವ್ಯಾಜ ಕರುಣಾಮೂರ್ತಿರಜ್ಞಾನದ್ವಾಂದದೀಪಿಕಾ ಆಬಾಲವೋಪವಿದಿತ ಸರ್ವಾನುಲ್ಲಂಘ್ಯ ಶಾಸನ ಶ್ರೀಚಕ್ರ ರಾಜ ನಿಲಯ ಶ್ರೀಮತ್ ತ್ರಿಪುರ ಸುಂದರಿ ಶ್ರೀ ಶಿವ ಶಿವ ಶಕ್ಯೈಕ ರೂಪಿಣಿ ಲಲಿತಾಂಬಿಕಾ ಏವಂ ಶ್ರೀ ಲಲಿತಾ ದೇವ್ಯಾ ನಾಂನಾಂ ಸಹಸ್ರಕಂ ಜಗುಃ ಇತಿ ಶ್ರೀ ಬ್ರಹ್ಮಾಂಡ ಪುರಾಣೇ ಉತ್ತರಖಂಡೇ ಶ್ರೀ ಹಯಗ್ರೀವ ಅಗಸ್ತ್ಯ ಸಂವಾದೇ ಶ್ರೀ ಲಲಿತಾ ರಹಸ್ಯ ನಾಮ ಸಹಸ್ರ ಸ್ತ್ರೋತ್ರ ಕಥನಂ ನಾಮ ದ್ವಿತೀಯೋಧ್ಯಾಯಃ ಸಮಾಪ್ತಃ ಅಥ ಶ್ರೀ ಲಲಿತಾ ಸಹಸ್ರ ನಾಮ ಸ್ತೋತ್ರ ಫಲಸ್ತುತಿಃ ಇತ್ಯೇತನ್ನಾಮ ಸಾಹಸ್ರಂ ಕಥಿತಂ ತೇ ಘಟೋದ್ಭವ ರಹಸ್ಯಾನಾಂ ರಹಸ್ಯಂಚ ಲಲಿತಾ ಪ್ರೀತಿದಾಯಕಂ ಸರ್ವಾಪಮೃತ್ಯು ಶಮನಂ ಕಾಲ ಮೃತ್ಯು ನಿವಾರಣಂ ಸರ್ವಜ್ವರಾರ್ತಿ ಶಮನಂ ದೀರ್ಘಾಯುಷ್ಯ ಪ್ರದಾಯಕಂ ಅನೇನ ಸದೃಶಂ ಸ್ತೋತ್ರಂ ನ ಭೂತಂ ನ ಭವಿಷ್ಯತಿ ಸರ್ವರೋಗ ಪ್ರಶಮನಂ ಸರ್ವ ಸಂಪತ್ ಪ್ರವರ್ಧನಂ ಪುತ್ರ ಪ್ರಥಮ ಪುತ್ರಾಣಾಂ ಪುರುಷಾರ್ಥ ಪ್ರದಾಯಕಂ ಇದಂ ವಿಶೇಷ ಶ್ರೀದೇವ್ಯಾಃ ಸ್ತೋತ್ರಂ ಪ್ರೀತಿ ವಿಧಾಯಕಂ ಜಪೇ ನಿತ್ಯಂ ಪ್ರಯತ್ನೇನ ಲಲಿತೋಪಾಸ್ತಿ ತತ್ಪರಃ ಪ್ರಾತಃ ಸ್ನಾತ್ವಾ ವಿಧಾನೇನ ಸಂಧ್ಯಾ ಕರ್ಮ ಸಮಾಪ್ಯ ಚ ಪೂಜಾ ಗೃಹಂ ತತೋ ಗತ್ವಾ ಚಕ್ರರಾಜಂ ಸಮರ್ಚಯೇತ್ विद्यां जपेत् सहस्रं वा द्विशतं शतमेव वा रहस्यं नाम साहस्रम् इदं पश्चात् पठे नरः जन्म मध्ये स कृच्छापि यये तत्पठते सुधीः तस्य पुण्यफलं वक्ष्ये शृणुत्वं कुम्भसम्भव गङ्गादि सर्वतीर्थेषु यस्नायात् कोटिजन्मसु कोटिलिङ्गप्रतिष्ठाञ्च यः कुर्यादविमुक्तके कुरुक्षेत्रे च यो दद्यात् कोटिवारं रविग्रहे कोटि सुवर्णभाराणां श्रोत्रियेषु द्विजन्मसु यः कोटिं हयमेधानाम् आहरेद्गाङ्गरोधसी आचरे कूपकोटिर्यो निर्जले मरुभूतले दुर्भिक्षेयः प्रतिदिनं कोटिब्राह्मण भोजनम् श्रद्धया परया कुर्यात् सहस्रं परिवत्सरान् तत्पुण्यं कोटिगुणितं भवेत् पुण्यमनुत्तमम् रहस्य नाम साहस्रे नाम्नोऽप्येकस्य कीर्तनात् रहस्य नाम साहस्रे नामैकमपि यः पठेत् तस्य पापानि नश्यन्ति महान्त्यपि न संशयः नित्यकर्मानुष्ठानात् निषिद्धकरणादपि यत्पापं जायते पुंसां तत्सर्वं नश्यति ध्रुवम् बहुनात्र किमुक्तेन शृणुत्वं कुम्भसम्भव अत्रैकनाम्नो या शक्तिः पातकानां निवर्तने तन्निवर्त्यमघं कर्तुं नालं लोकाश्चतुर्दश यस्त्यक्त्वा नाम साहस्रं पापहानिमभीप्सति स हि शीतनिव्युत्तर्धं निमशैलं निषेवते भक्तो यकीर्तये नित्यम् इदं नाम सहस्रकम् तस्मै श्रीललिता देवी प्रीताभीष्टं प्रयच्छति अकीर्तयन्निदं स्तोत्रं कथं भक्तो भविष्यति नित्यं सङ्कीर्तनाशक्तः कीर्तयेत् पुण्यवासरे सङ्क्रान्तौ विषवे चैव स्वजन्मत्रितये यने नवम्या वा चतुर्दश्यां सितायां शुक्रवासरे कीर्तये नाम साहस्रं पौर्णमास्यां विशेषतः पौर्णमास्यां चन्द्रबिम्बे ध्यात्वा श्रीललिताम्बिका पञ्चोपचारैः सम्पूज्यः पठे नाम सहस्रकम् सर्वे रोगाः प्रणश्यन्ति दीर्घायुष्यञ्च विन्दति अयम् आयुष्करो नाम प्रयोगः कल्पचोदितः ज्वरातिं शिरसि स्पृष्ट्वा पठे नाम सहस्रकम् तत्क्षणात् प्रशमं याति शिरस्तोदो ज्वरोऽपि च सर्वव्याधिनिवृत्त्यर्थं स्पृष्ट्वा भस्मजपेदिदं तद्भस्मधारणादेव नश्यन्ति व्याधयक्षणात् जलं संरक्ष्य कुम्भस्थं नाम सहस्रतो मुने अभिषिञ्चे ग्रहग्रस्तान् ग्रहा नश्यन्ति तत्क्षणात् सुधासागरमध्यस्थं ध्वात्वा श्रीललिताम्बिकां यः पठे नाम साहस्रं विषं तस्य विनश्यति वन्ध्यानां पुत्रलाभाय नाम साहस्रमन्त्रितं नवनीतं प्रदद्यातु पुत्रलाभं भवेद्ध्रुवं देव्या पाशेन सम्बद्धाम् आकृष्णमङ्कुशेन च ध्यात्वा भीष्टं स्त्रियं रात्रौ जपे नाम सहस्रकम् आयाति स्वसमीपं सा यज्जप्यन्तः पुरङ्गता राजा कर्षणकामश्चेद् राजा वसददिङ्मुखः त्रिरात्रं यः पठेदेत श्रीदेवी ध्यानतत्परः स राजा पारवस्येन तुरङ्गं वामतङ्गजम् आरुह्यायाति निकटं दासवत्प्रणिपच्य च तस्मै राज्यं च कोशं च ददात्येव वशङ्गतः रहस्य नाम साहस्रं यः कीर्तयति नित्यशः तन्मुखालोकमात्रेण मुख्ये लोकत्रयं मुने यस्विदं नाम साहस्रं सकृत् पठति भक्तिमान् तस्य ये शत्रवस्तेषां निहन्ति शरभेश्वरः यो वाभिचारं कुरुते नाम साहस्रपाठके निर्वर्त्य तत्क्रियां हन्यात् तं वै प्रत्यङ्गिरा स्वयं ये क्रूरदृष्ट्या वीक्षन्ते नाम साहस्रपाठकम् तासन्धान् कुरुते क्षिप्रं स्वयं मार्ताण्डभैरवः धनं यो हरते चोरो नाम साहस्रजापिनः यत्र यत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् विद्यासु कुरुते वादं यो विद्वान् नाम जापिना तस्य वाक्संवनं सद्यः करोति न कुलेश्वरी यो राजा कुरुते वैरं नाम साहस्रजापिना च चतुरङ्गबलम् तस्य दण्डिनी संहरे स्वयम् यः पठे नाम साहस्रम् षण्मासम् भक्ति संयुतः लक्ष्मीश्चाञ्चल्यरहिता सदा तिष्ठति तद्गृहे मासमेकम् प्रतिदिनम् त्रिवारम् यः पठे नरः भारती तस्य जिह्वाग्ररङ्गे नृत्यति नित्यशः यस्यैकवारम् पठति पक्षमात्रमतम् धृतः मुह्यन्ति कामवशका मृग्याक्षस्तस्य वीक्षणात् यः पठे नाम साहस्रम् जन्म मध्ये सकृन्नरः तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः यो वेति नाम साहस्रम् तस्मै देयम् द्विजन्मने अन्नम् वस्त्रम् धनम् धान्यम् नान्येभ्यस्तु कदाचन श्रीमन्त्रराजम् यो वेत्ति श्रीचक्रम् यः समर्चति यः कीर्तयति नामानि तम् सत्पात्रम् विदुद्भुदाः तस्मै देयम् प्रयत्नेन श्रीदेवी प्रियमिच्छता न कीर्तयति नामानि मन्त्रराजम् न वेत्ति यः पशुतुल्यः स विज्ञेयः तस्मै दत्तम् निरर्धकम् परीक्ष विद्या विदुषस्तेभ्यो दद्याद्विचक्षणः श्रीमन्त्रराज सदृशो यथा मन्त्रो न विद्यते देवता ललिता तुल्या यथा नास्ति घटोद्भव रहस्य नाम साहस्र तुल्या नास्ति तथा स्तुतिः लिखित्वा पुस्तके यस्तु नाम साहस्रमुत्तमम् समर्चयेत् सदा भक्त्या तस्य तुष्यति सुन्दरी बहुनात्र किमुक्तेन शृणुत्वम् कुम्भसम्भव नानेन सदृशम् स्तोत्रम् सर्वतन्त्रेषु विद्यते तस्मादुपासको नित्यम् कीर्तयेदिदमादरात् येभिर्नाम सहस्रैस्तु श्रीचक्रम् योचयेत् सकृत् पद्मैर्वा तुलसीपत्रैः हल्हारैर्वा कदम्बकैः चम्पकैर्जाति कुसुमै मल्लिका करवीरकैः उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसर पाटलैः अन्यै सुगन्धि कुसुमै केतकी माधवी मुखैः तस्य पुण्यफलम् वक्तुम् न शक्नोति महेश्वरः सावेत ललिता देवी स्वचक्रार्जनजम् फलम् अन्ये कथम् विजानीयुः ब्रह्माद्या स्वल्पमेधसः प्रतिमासम् पौर्णमास्याम् येभिर्नाम सहस्रकैः रात्रौ यश्चक्रराजस्ताम् अर्चयेत् परदेवताम् स एव ललिता रूपः सद्रूपा ललिता स्वयम् नतयोर्विद्यते भेदो भेदकृत्वा प्रकृत् भवेत् महानवम्यायो भक्तः श्रीदेवीम् चक्रमध्यगाम् अर्चये नाम साहस्रैः तस्य मुक्तिः करे स्थिता यस्तु नाम सहस्रेण शुक्रवारे समर्चयेत् चक्रराजे महादेवीम् तस्य पुण्यफलम् शृणु सर्वान् कामानवाप्नोति सर्वसौभाग्यसंयुतः पुत्रपौत्रादि संयुक्तो भुक्ता भोगान्यदीप्सितान् अन्ते श्रीललिता देव्या सायुज्यमति दुर्लभम् प्रार्थनीयम् शिवाद्यैश्च प्राप्नोत्येव न संशयः यः सहस्रम् ब्राह्मणानाम् येभिर्नाम सहस्रकैः समर्च्य भोजयेद्भक्त्या पायसापूपषड्रसैः तस्मै प्रीणाति ललिता स्वसाम्राज्यम् प्रयच्छति न तस्य दुर्लभम् वस्तु त्रिषु लोकेषु विद्यते निष्कामः कीर्तयेद्यस्तु नाम साहस्रमुत्तमम् ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् धनाद्धी धनमाप्नोति यशोऽर्थी चाप्नुयाद्यशः विद्यार्थी चाप्नुयाद्विद्याम् नाम साहस्रकीर्तनात् नानेन सदृशम् स्तोत्रम् भोगमोक्षम् प्रदम् मुने कीर्तनीयमिदम् तस्माद् भोगमोक्षाद्धिभिन्नरैः चतुराश्रयनिष्ठैश्च कीर्तनीयमिदम् सदा स्वधर्म समनुष्ठान वैकल्य परिपूर्तये कलौ पापैक बहुले धर्मानुष्ठान वर्जिते नाम सङ्कीर्तनम् मुक्त्वा नृणा नान्यत् परायणम् लौकिकाद्वचनान्मुख्यम् विष्णुनामानुकीर्तनम् विष्णुनाम सहस्राच्च शिवनामैकमुत्तमम् शिवनाम सहस्राच्च देव्या नामैकमुत्तमम् देवी नाम सहस्राणि कोटिशः सन्ति कुम्भजा तेषु मुख्यम् दशविधम् नाम साहस्रमुच्यते गङ्गा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललिता दश गंगा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललिता दश गंगा भवानी गायत्री काली लक्ष्मी सरस्वती राजराजेश्वरी बाला श्यामला ललिता दश रहस्य नाम साहस्रम् मुख्यम् दशसुतेस्वती तस्मात् संकीर्तये नित्यम् कलिदोष निवृत्तये मुख्यम् श्रीमातृनामेति न जानन्ति विमोहिताः विष्णुनाम परा केचित् शिवनाम परा परे न कश्चिदपि लोकेषु ललिता नाम तत्परः येनान्यदेवता नाम कीर्तितम् जन्म कोटिषु तस्यैव भवति श्रद्धा श्रीदेवी नाम कीर्तने चरमे जन्मनि यथा श्रीविद्योपासको भवेत् नाम सहस्रपाठश्च तथा चरम जन्मनि यथैव विरला लोके श्रीविद्याचार वेदिनः तथैव विरला लोके नाम सहस्रपाठकाः मन्त्रराज जपश्चैव चक्रराजार्चनं तथा रहस्य नाम पाठश्च नाल्पस्य तपसः फलम् अपठन्नाम साहस्रम् प्रीणयेद्यो महेश्वरीम् सचक्षुषा विना रूपम् पश्ये देव विमूढधीः रहस्य नाम साहस्रम् त्यक्त्वा यसिद्धिकामुकः सभोजनम् विना नूनम् क्षुण्णिवृत्तिमभीप्सति यो भक्तो ललिता देव्या सन्नित्यम् कीर्तयेदिदम् नान्यथा प्रीयते देवी कल्पकोटिशतैरपि तस्माद्रहस्य नामानि श्रीमातुः प्रियतः पठेत् इति ते कथितम् स्तोत्रम् रहस्यम् कुम्भसम्भवा ना विद्यावेदिने ब्रूयात् ना भक्ताय कदाचन यथैव गोप्या श्रीविद्या तथा गोप्यमिदम् मुने पशुतुल्येषु न ब्रूयाज्ञनेषु स्तोत्रमुत्तमम् यो ददाति विमूढात्मा श्रीविद्यारहिताय च तस्मै कुप्यन्ति योगिन्यो सोऽनर्धम् सुमहास्मृतः रहस्य नाम साहस्रम् तस्मात् सङ्गोपयेदिदम् स्वातन्त्र्येण मया नोक्तम् तवापि कलशोद्भव ललिता प्रेरणेनैव मयोक्तम् स्तोत्रमुत्तमम् कीर्तनीयमिदम् भक्त्या कुम्भयोने निरन्तरम् तेन तुष्टा महादेवी तवाभीष्टम् प्रदास्यति इत्युक्त्वा श्रीहयग्रीवः ध्यात्वा श्रीललिताम्बिकाम् आनन्दमग्नहृदयः सज्जः पुलकितो भवतु इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीव अगस्त्यसंवादे श्रीललिता रहस्य नाम साहस्रफलनिरूपणम् नाम तृतीयोऽध्यायः समाप्तः।